पा इति संयुक्तपदं वर्तते खलु अत्र ल्फा इति उपधा अत्र संयुक्ता उपसर्जनात् किं शिखा तत्र शिखी इति न भवति शिखी इत्युक्ते अग्निः इति अन्यः अर्थः भवेत् अतः अत्र उपसर्जनात् किं शिखा शिखायाः प्रधानत्वं
शिखा प्रधानं
न उपसर्जनं
न उपसर्जनं शिखा
शिखी इति न भवति शिखा शिखी इति यथा चन्द्रमुखी चन्द्रमुखा इति एवं शिखी अथवा शिखा इति वक्तुं शक्यते तथा शिखी इति शब्दः वर्तते तस्य अर्थः अन्यः अग्निः तथा शिखावान् शिखी शिखा अस्य अस्ति इति शिखी इति
अग्निखिन्
अग्नि
शिखिन्
शिखी इत्युक्ते अग्निः तथा यस्य शिखा वर्तते सः सोऽपि तदा पुल्लिङ्गरूपः सः द्वयं
वालिनिव
न क्रोडादिबह्वचः क्रोडादेः बह्वचश्च स्वाङ्गात् न ङीष् क्रोडादेः बह्वचः स्वाङ्गात् क्रोडा इति ल्याप् तत्र ऊर् क्रोडादि बह्वचश्च क्रोडादि अङ्गवाचकाः शब्दाः तथा बह्वचश्च बहु स्वराः यस्मिन् शब्दे वर्तन्ते सः तत्र ङीष् न भवति टावेव कल्याणक्रोडा
बहवः स्वराः बहवः इत्युक्ते कति
बहुवचने बहुषु बहुवचनं
बहवः स्वराः
तत्र स्वरद्वयानन्तरं द्वयानन्तरं बहवः स्वरा इत्येव बह्वचः बहु स्वराः यस्मिन् शब्दे
स्वरः इत्युक्ते तत्र
तत्र उदाहरणे कल्याण अत्र स्वरत्रयं वर्तते
मोर् देन् टु इस् बहु एकं द्वे बहु
एवम्
एकं द्वे बहु
स्वरः तत्र वैदिकस्वरः न अच् इति
एकं द्वे बहु
कल्याणक्रोडा क्रोडा इत्युक्ते लेन् तत्र ऊरु इत्यर्थः लेप् आकृतिगणोऽयं कल्याणक्रोडा
अत्र इङ्ग्लीष् कुत्र
न ङीष् इति न क्रोडाङ्गात् न ङीष् अत्र ङीष् न भवति अर्थात् टाप् यत्र ङीष् न भवति तत्र टाप् इति अर्थाल्लभ्य टाप् भवति इत्यर्थः ङीष् न कर्तव्या इति
सूत्रे
क्रोडी इति क्रोडी अतः कल्याणक्रोडी इति ङीष् न कर्तव्या इति सुजघना अत्र सुजघना इत्यत्र उ अ इति चत्वारः स्वराः
सुजघ
सु इत्यत्र प्रत्यक्षरम् एकः स्वरः वर्तते अत्र
सुजघनपर्यन्तं
वचनं नखमुखात् संज्ञायां न ङीष् नखमुखात्
तर्हि गोपालका तत्रापि स्वराः
सन्ति
तत्र प्रत्ययस्थितः ककार इति अन्ये विषयान्तरं भवति तत्र नङीर् नखमुखा संज्ञायां संज्ञायां नामधेयविषये कस्यापि नामधेयविषयं यदि भवति तदा नखमुखशब्दात् ङीष् न भवति पूर्वपदासंज्ञायाम् अगः गकारं परित्यज्य पूर्वपदासंज्ञायां पूर्वपदस्य प्राधान्ये
तस्य उदाहरणं नास्ति किं नखमुख
अत्र अत्र दीयते सूत्रद्वयमपेक्ष्य अत्र उदाहरणं वर्तते पूर्वपदस्था निमित्तात् परस्य नस्य णः स्यात् संज्ञायां न तु गकार व्यवधाने पूर्वपदस्य उत्तरपदस्य सम्बन्धः भवेत् असम्बन्धे न सम्बन्धे स्थिते तदा नकारस्य नकारः भवति किन्तु गकारव्यवधाने न यदि मध्ये गकारः भवति तदा नस्य णत्वं न भवति न एव तत्र शूर्पणखा शूर्पणखा अत्र शूर्पणखा इति कस्यापि नार्यः शूर्पाकाकारा नरा नखा वर्तन्ते इति न किन्तु शूर्पणखा इति रावणस्य भगिनी संज्ञा शूर्पणखा इति नामधेयं नामधेयत्वात् अत्र शूर्पणखा इति टाप् ङीष् न भवति शूर्पणखी इति न वक्तव्यं किन्तु कर्णाटकभाषायां सर्वत्र शूर्पणखी इत्येव उच्यते रावणस्य पत्नी शूर्पणखी शूर्पणखा समागता अत्र संज्ञाया तथा गौरमुखा यदि गौरमुखा इति नामधेयं वर्तते तर्हि संज्ञायां ताम्रमुखी कन्या यदि कन्यां द्रष्टुं गच्छन्ति तदा कन्या शोभना वर्तते किन्तु ताम्रमुखी तत्र ताम्रमुखी इति ङीष् आगच्छति अति ताम्रमुखी इति न नामधेयं कन्यायाः मुखस्य स्थितिः तस्य मुखवर्णः ताम्रवर्णः तद्दिने उक्तं किल ताम्रवर्णसमाकारं वस्तुनाम षडक्षरी अकारान्ति उकारादि लकारान्तं योजानात् स पण्डितः ताम्र इति शूर्पणख गकार अव्यवधाने इत्यस्य तत्र गवा किम् इति प्रश्नः भवेत् किन्तु अत्र न वर्तते उदाहरणे तत्र गकार इति भवति मृगायणं तत्र सिद्धान्तकौमुदो वर्तते ऋक् ऋचाम् अयनं ऋचाम् अयनं मृगायनं मृगायनी इति न भवति मृगायना तत्र मृगायन इत्यत्र अण्णत्वं नास्ति मृगायण इति न वक्तव्यं
मृगायना वा अण्णत्वं न भवति
आय इति मृगयनं ग इति ऋग् तत्र जलांजष्टि सूत्रेण ककारस्य गकारत्वात् तत्र ककारव्यवधानः वर्तते अतः नकारस्य णत्वं तत्र ऋगयने नास्ति ऋगायनमिति न ऋगयनं क्षम्यता गन्तव्य आयनमिति अपि वक्तुं शक्यते अयनशब्दस्य यथा रामा आयनम् अतः अयनं द्वयमपि वर्तते अत्र ऋगयनमेव भवेत् भवति संज्ञायां किम् उक्तं जातेरस्त्रीविषयाद् अयोपधात् जातिवाचि यत् न स्त्रियां नियतम् अयोपदं तत् स्त्रियां ईर्ष्यात् अयोपदं तत्र उपधास्थाने यकारः यत्र न वर्तते उपधास्थाने उपान्त्याक्षरं य यदि न भवति तर्हि तथा यत् जातिवाचि न भवति तत्र ङीष् भवति तटी वृषली कठी ब्रूचि जातेः किं मुण्डा अस्त्री विषयात् किं बलाखा
जाति किमस्ति
जाति तु समूहवाचकत्वं यत्र न वर्तते तथा यत् न च स्त्रियां नियतम् अयोपथम् अत्र कुत्रापि अयोपथं नास्ति तटी वृषली कटी ब्रूकोचि अत्र सर्वत्र यकारः यकारः न वर्तते अयोपदम् इति यकारः यत्र न वर्तते उपदास्थाने इति अत्र स कुत्रापि न वर्तते तत्र क्षत्रिया अत्र वर्तते अयोपदात् किम् इति प्रश्नः वर्तते खलु तत्र क्षत्रिया अत्र क्षत्रियी इति वक्तुं न शक्यते क्षत्रियी इति न वक्तव्यम् उपधास्थाने यकारः क्षत्रिया अत्र वर्तते
उपधास्थाने वा अन्त्यस्थाने अस्ति
हा उपान्त्यस्थाने उपधास्थाने
हा क्षत्रिय
अत्र वर्तते य वर्तते
य अन्ते अस्ति
योपदा प्रतिनिधीयते हयगवय मुखय मनुष्य मत्स्यानाम् अप्रतिनिधः तत्र
एक्सेप्शन्
है गवै सुखै मुखै इति वक्तुं शक्यते तत्र यत्र अयोपधा इत्युक्तं यकारस्य प्रतिषेधः उक्तः तत्र हय गवय मुखय मनुष्य मत्स्य नाम विना इति निवेशनीयं हलस्तद्धितस्य इति सूत्रेण यलोपे कृते मनुषी मनुषी मानुषी द्वयमपि वर्तते मत्स्यस्य ज्ञा मत्स्य इत्यत्रापि यकारस्य लोपः भवति मत्सी इति भवति ज्ञाम् इत्युक्ते ङी इत्यर्थः ङीप्यति इतो मनुष्यजातेः मनुष्यजातिवाचक इकारान्तशब्दात् दाक्षी इतः मनुष्यजातेः नीर् दाक्षी दक्षस्य पुत्री दाक्षी ऊङ्तः उदन्तात् अयोपधान् मनुष्यजातिवाचिनः स्त्रियाम् ऊङ् स्यात् स्त्री वक्तव्ये उदन्तात् अयोपधात् उकारान्त यकारोप उपधा यत्र न भवति मनुष्यजातिवाचि शब्दात् तत्र गवादीनां प्रवेशः नास्ति केवलं मनुष्यः तत्र कुरुदेशे स्थिता नारी इत्यादि सन्दर्भे कुरुः इयं कुरुः अर्थात् कुरुदेशात् समागता इयं नारी इत्यर्थः कुरुः इति ऊं ऊं इत्युक्ते ऊकारः इत्यर्थः अयोपधात् किम् अध्वर्युब्राह्मणी
तत्र तत्र कः प्रसङ्गः
प्रसङ्गः किम्
ईप् इङ्गि नागच्छति
यत्र विशेषप्रत्ययः उच्यते तत्र टाप् नीष् ङीप् इत्यादयः निवृत्ताः भवन्ति ऊङ् ऊङ् इति प्रत्ययः भवति ऊङ्
ऊङ् उतः
उच्यते
अत्र
अध्वर्युब्राह्मणे अत्र अध्वर्यु इति वर्तते खलु इति अध्वर्यू इति न वक्तव्यं यथा या उपधा वर्तते अत्र अध्वर्युशब्दे यकारः उपधायां स्थितः वर्तते उपधास्थाने यकारः वर्तते अतः अध्वर्यू इति अध्वर्यू ब्राह्मणि इति न वक्तव्यम् अध्वर्यु ब्राह्मणी तत्काले ब्राह्मणस्त्रिया अपि अध्वर्युस्थानं दृश्यन्ते इति अनेन ज्ञायते अध्वर्यु इति यज्ञादिसन्दर्भे होता अध्वर्युः उद्गाता ब्रह्म इति तत्र चतुष्टयानाम् आवश्यकता वर्तते एकस्मिन् यज्ञे यज्ञे पुत्रो ब्राह्म ब्राह्मणचतुष्टयस्य ब्राह्मण इत्युक्ते तत्र वैदिक ऋत्युचतुष्टयस्य आवश्यकता तत्र यः अध्वर्युः अध्वर्युः इत्युक्ते होमस्य प्रधानः यः वर्तते सः अध्वर्युः इत्युच्यते तेन यजुर्वेदिना एव भवितव्यम् अध्वर्युर्यजुर्वेदी ऋक् होता ऋग्वेदी यः भवति सः होता भवति होता इति अध्वर्योपविश्य वर्तते यो तत्र सुरङ्ग्रहण इत्युक्ते तः सुरं गृहीत्वा प्रसिद्धः भवति अग्निमीळे पुरोहितं हा सः वदति तत्र होता तत्र स्वाहाकारं यच्छति तन्मध्ये किमपि गायनादिकं कर्तव्यं चेत् सः सामगः यः वर्तते तस्य अधुना उक्तं किल होता अध्वर्युः ब्रह्मा स तु चतुर्वेदी ब्रह्म ब्रह्माण चतुर्वेदित्वं सामगस्य तु सामवेदमात्रं होता तु ऋग्वेदी भवति होता ऋग्वेदी भवति अध्वर्युः यजुर्वेदी भवति सामवेद अधुनैव उक्तम् अधुनैव स्मृतम् ऋत्विक् ऋत्विक् सर्वे ऋतुजा एव उच्यते अधुनैव उक्तम्
तत्र अध्वर्यु ब्राह्मणी इति
अध्वर्यु इति नोक्तव्यम् एका ब्राह्मणी वर्तते सा अध्वर्यु कार्यम् अथवा ऋग्वेदी पङ्गोश्च शुश्रूषस्य ओकारलोपश्च उकारलोपश्च पङ्गुः शुश्रूः शुश्रूशब्दस्य शुश्रूः पङ्गु मत्तु शुश्रूशब्द तत्रापि ऊं पङ्गुशब्दस्य शुश्रूशब्दस्यापि ऊं भवति इत्यर्थः तत्र शुश्रूरा इति पुल्लिङ्गः शुश्रूरः इति शुश्रूरा इत्यत्र तस्य रकारस्य तस्य शुशु इत्यत्र उकारस्य लोपे कृते तत्र ऊङ् आदेशे शुश्रूः इति रूपं शुश्रूः इति अत्ते तस्य मदर् इन् ला शुश्रूरा इत्युक्ते फादर् इन् ला शुश्रूरा इति शुश्रूरः पुल्लिङ्गः पुल्लिङ्गस्य शुश्रूरशब्दे रकारम् अन्ते या वर्तते रकारम् उकारञ्च लोपं कृत्वा तत् स्थाने ऊकारः निवेशितः शुश्रूः इति भवति ओ इति न ऊः तत्र गुणसन्धिः शुश्रूरस्य उकाराकारलोपश्च शुश्रूरशब्दस्य शुश्रूरशब्दस्य उकाराकारलोपं कृत्वा तस्य स्थाने अन्त्यस्थाने तत्र ऊं आगच्छति इति
पूर्वसुतः पुङ् आगच्छति
हा ऊङ्तः इत्येव ऊरुत्रपदात् औपम्ये यत्र उपमानत्वं वर्तते उपमानवाची पूर्वपदम् ऊरुत्तरपदं यत् प्रातिपदिकं तस्मात् ऊं स्यात् उपमानवाचि उपमानवाचि सादृश्यवाचि पदं पूर्वं वाचि पदं पूर्वं भवति तदा उत्तर उत्तरपदे यदि उकारान्तः वर्तते ऊङ्तः इति पूर्वम् उक्तं किल उकारान्तः हा किमपि पदं वर्तते सः अपि ऊं तत्रापि ऊङ् आगच्छति करभोरुः करभोरुः ऊरु इति उकारान्तम् अत्र ऊङ् आगमनेन ऊरू इति करभोरु इति करभा इत्युक्ते बालः हस्ति करभः कलभः शिशुः करभः कलभशिशुः इत्यमरः करभः कलभशिशुः गजस्य शिशुः करभः अथवा कलभः इत्युच्यते
तर्हि स्त्रीलिङ्गे करभोरु वा तत्
करभोरु दीर्घ तस्याः ऊरुः बालगजस्य इव वर्तते संवितशपलक्षणवामादेश्च केवलं
अत्र परिष्कारः पूर्वोत्तरपदादोपमे केवलम् उपमा एव इति न, किन्तु अन्यत्र विशेषणादिसन्दर्भेपि तत्र ओं भवति अनौपम्यार्थमपि, अनौपम्यार्थं सूत्रम् अर्थात् पूर्वमुक्तं पूर्वोत्तरपदादौपमे इति उपमानार्थे उक्तं, किन्तु तत्र परिष्कारः क्रियते केवलम् उपमानार्थे एव न, अनेकविशेषणार्थे अपि तत्र ओं भवति. संहितोरुः, संहितोरुः संहिता, संहिते ऊरु यस्याः सा, शफोरु शफ इव अत्र पुनः उपमासदृशमेव भवति. शफोरु शफः इत्युक्ते तस्य अश्वादि नाम यत् पादः वर्तते तस्य धारात्मकं वर्तते, केवलं तत्र एकधारा वर्तते न, एवं विगलितं न भवति. शफोरु लक्षणोरु वामोरु, वामशब्दस्य सुन्दरः इत्यर्थः. अत्र वामनशब्दः कुब्जा इत्यर्थे रूढः, किन्तु सः वामनः सुन्दरः इति वामनः इत्युच्यते स्म. वामनः वामदेवः, वामदेवो महादेवो ईश्वरं प्रति परमेश्वरं प्रति वामदेवः इति वर्तते. वामदेवः इति वामे उपविष्टे एव देवः इति इत्यादिना, वामसुन्दरो देवः. अतः तत्र तत्र तमिळ्नाडु मधुरा सुन्दरेश्वरः तत्र रामेश्वरः मथुरानगरे, वामेश्वरः वामशब्दस्य सुन्दर इत्यर्थः. वामोरु तु सुन्दरोरु, अत्र उपमानत्वं नास्ति किन्तु विशेषणतया आगतम्. अत्रापि ऊङ् आगच्छति. शार्ङ्गरवाद्यञुङीन्, शार्ङ्गरवादेः अञः यः अकारः तदन्ताच्च जातिवाचना ङीन् स्यात्. शार्ङ्गरवी शार्ङ्गरवि, शार्ङ्गरवादेः अञः यकाराः तदन्ताच्च जातिवाचनः ङीन् स्यात्. ङीन् ङीन् भवति अत्र ङीन् इति
जातिवाचकः इत्युक्ते पत्नी वा पुत्री वा स्यात्,
ब्राह्मणी वैदी जाति
वैदी ब्राह्मणी.
तर्हि कथं वा जानीमः पुत्री अस्ति वा पत्नी अस्ति वा
तत्सन्दर्भेण,
ब्राह्मणस्य पुत्री वा ब्राह्मणस्य पत्नी वा.
नृनरयोरुद्धिश्च, नृ तथा
नर,
नर नारी इति नृशब्दाद्वा नरशब्दाद्वा, नृशब्दाद्वा नरशब्दाद्वा नारी इत्येव. नृशब्दस्य स्त्रीरूपं, नरशब्दस्य स्त्रीरूपं नारी इत्येव. नृ इत्यत्र तत्र नर इति अणागच्छति, अनागमनानन्तरं नृशब्दः नर एव भवति. एवं यूनस्तिः, युवन् शब्दः स्त्रियां तिः प्रत्ययः स्यात्. युवतिः युवन्, युवन् इति वर्तते तत्र नकारस्य उपरि तिः आगत्य युवतिः इति भवति. युवती इत्यपि वर्तते, युवती इत्यत्र अन्यत् कारणं. किन्तु तत्र युवती इति उच्यते, युवती इति युवेन सवा सह मिश्रा भवति इत्यर्थे युवती इति युवती. तदनन्तरं रूढनाम्ना सर्वत्र युवती इत्येव, मिश्रीभावः भवतु वा न वा तथापि. अत्र युवशब्दस्य एव यथा स्त्रीत्वे युवतिः इति तिः भवति, यत्र मिश्रीभावः भवति तत्र युवती इत्यपि अत्र लिखितं खलु. ननु युवतीति दीर्घे काकारान्त कथं सिद्धयति चेत् यौतिमिश्रीकरोति आत्मानं पत्या इति विग्रहे तु धातोर्लटि तस्य शत्रादेशे उगितश्च इति ङीप्रत्ययः यौति धातुमूलत्वात् तत्र युवन्निति पूर्वम् अत्रापि धातु सिद्धमेव किन्तु युवन्निति कृतं तद्धितरूपः तत्र यौति इति नेरं यथा शक्नोति इति शकः इति उच्यते एवमेव यौति इति युवा यौति इति युवा इति कृत्वा तत्स्थाने तत्र ति इति शत्रुन्तं कृत्वा युवत् भवत्शब्दवत् भवत्शब्दवत् शत्रु शत्रुरूपं दत्त्वा युवत् इति कृत्वा तस्य नीस् कृते युवती इति दीर्घान्तः युवती शब्दः भवति दीर्घान्तः यौती मिश्रीकरोति यौति मिश्रीकरणे इति धातुः यौती यौती इति लट्लकारस्य प्रथम पुरुषरूपं यौती केन पत्या पत्या सह मिश्री भवति इति विग्रहं कृत्वा यौति धातोः लटि तस्य शत्रादेशे शानच् कानचौ इति प्रत्ययः भवति खलु तत्र शत्रुप्रत्ययस्य आदेशं कृत्वा युवत् इति भवति यौतिशब्दस्य उपरि शत्रुप्रत्ययस्य आगमनेन भवत् शब्दवत् भवतीति भवत् भूसत्तायामिति भवत् भवति वा तद्वत् एव यौति इति यवत् युवत् युवत् भवति तस्य उपरि ङीषागमनेन उगितश्च इति सूत्रेण यत्र उकारः इत्संज्ञा भवति तत्र ङी प्रत्ययः ङीष् न ङी
सर्वेषां
छत्रन्तत्वात् उगितश्च भवति
पुल्लिङ्गे छत्रन्तपदम् अनन्तरं स्त्रीप्रत्ययः
स्त्रीप्रत्ययः आगच्छति
स्त्रीप्रत्ययः
उत्तमं तत्र गङ्गादिपदेषु यमुना गङ्गा इत्यादि पदेषु प्रथमं स्त्रीत्वं तदनन्तरं
पुल्लिङ्गे भवति
अधुना समापयामः वा अत्र पञ्चनिमेषपर्यन्तं भवद्भिः शब्दसिद्ध्यर्थं किं करणीयमिति तत्र एवं ग्रन्थं दृष्ट्वा टक् चक् पक् इति उच्चैः किमपि वर्तते इति तत्र उदासीना न भवेयुः इति इत्यर्थं तत्र कृदन्ते पृष्ठसङ्ख्या एकोनपञ्चाशत् शतोत्तरं धातोः वासुरूपो स्त्रियां विना कृत्याः किञ्चित् दर्शयामि तव्यत्तव्यानीयरः इति भवति एधितव्यं एधनीयम् इत्यादि अत्र सूत्राणां व्यवहारः मास्तु किन्तु सूत्रम् अधिकृत्य यद्रूपम् अत्र कृत्यते तद् द्रष्टव्यं कृदन्ते कृत्यप्रत्ययाः तव्यतव्यानीयरः इति एते प्रत्ययाः स्युः भावकर्मार्थे भावकर्मार्थे तव्य तव्यत् अनीयर् इति पदः एकशतोत्तर
एकं चत्वारि नव
एकचत्वारि नव
कृदन्ते
क्रियापदानि
एवमेव कृत्युल्लुटो बहुलं दानीयो विप्रः दानीयः अत्र दानीयशब्दस्य अनेकशः दानीयः दानं कर्तुं योग्यः इति वस्तुनिष्ठः प्रयोगः भवेत् तन्न भवेत् दानीयः इत्युक्ते दानग्रहणे योग्यः इति अर्थः दीयते अस्मै दानीयो विप्रः तत्र एतादृ शब्दः शब्दसौष्ठवं तत्र दानीय इत्युक्ते अस्माभिः एवं दानीय दानीया शर्करा इयं शर्करा दानं दातुं योग्या इत्यादि अर्थेषु वयं यदि उपयोगं कुर्मः तत्र दोषः भवति. दानीयशब्दः दानं गृहीतुं योग्यः इति. दानीया परवेश्मस्था ईद्यति देयं
न तु यद्दीयते तत्.
अत्र यद्दीयते ईद्यति इति देयं ग्लेयम् एतत्तु वस्तुनिष्ठं. देयम् इत्युक्ते देयो ब्राह्मण इति न. ब्राह्मणस्य अथवा कस्यापि वस्तु दीयते तत् देयं दातुं योग्यम् इति. तत्र दानीय इत्यत्र दानं गृहीतुं योग्यः इति. लभ्यं प्राप्तुं योग्यम् इत्यर्थे लभ्यं लभ्यं वर्तते. शास् इद्धलोः शिष्यः शिष्यः इति पदः पदं कितं कथम् उत्पन्नम् इत्युक्ते शास् इदङ्गलोः इति सूत्रेण अत्र शिष्यः इति आदृत्यः जुष्यः मृजेर्भाषा मृज्यः कार्यं हार्यम् इत्यादिपि प्रलोण्यत् कार्यं हार्यं धार्यं कर्तव्यम् इति तत्कार्यं भोज्यं भक्षे भोग्यमन्यत् भोज्यमिति भोग्यमिति भोज्यमिति भोजनविषये भोज्यमिति भोग्यं तस्य भुनुक्तिरेव रूपद्वयं. भोग्यमिति वस्तुजातम् अधिकृत्य भोज्यमिति केवलम् आहारम्
अधिकृत्य
पूर्वकृतन्ते कारकः कर्ता जनार्दनः ग्राही स्थायी मन्त्री युगुपथज्ञाप्रीतिकरः कः कस्यात् ज्ञः प्रियः किरः इत्यादि तत् मास्तु. धनदः कम्बलदः अत्र आतो अनुपसर्गे कः इति ददाति इत्यर्थः. तथा केवलं दकारं निवेश्य अनेके शब्दाः उत्पन्नाः भवन्ति. नीरदः नारदः नारदमपि तथा नारं ददाति इति नारदः तत्रापि नारं द्यति खण्डयति इत्यपि नारदः इत्यपि भवति. द्यति खण्ड खण्डयति इति अर्थः. नारं द्यति नरस्य सम्बन्धी नारम् अज्ञानं अज्ञानं द्यति खण्डयति. तस्य नरस्य सम्बन्धी ज्ञानं नारम् इत्यत्र एव अर्थद्वयं ज्ञानमिति भवति अज्ञानमित्यपि भवति. नारं ददाति इति नारदः रूपद्वयमपि सत्यमेव नारदः नारं ददाति इति नारदः नीरदः इति तु नीरं ददाति इति तत्र मेघा जलदः नारदो ज्ञानदः इत्येव भवति. प्रियं वदः वशं वदः प्रियवशे वदः खच् वदशब्दस्य उपरि खच् प्रत्यय आगत्य वदः भवति. एवमेव सर्वत्र अस्माभिः द्रष्टव्यं भवति. तथा अर्थविशेषश्च यत्र कुत्रापि भवेत् यथा तद्दिने उक्तं किल यथा समाज सामाजिकः इति शब्दस्य अत्रैव वर्तते कुत्रापि सामाजिकशब्दस्य सामाजिकाः जनाः इति उच्यन्ते. यः समाजं रक्षति सः सामाजिकः. समाजं रक्षति अर्थात् समाजस्य संस्कारादि संस्कृतिविचारे यस्य मनः वर्तते तत् कार्यं वा करोति सः सामाजिकः. सामाजिकाः पुरुषाः इत्युक्ते अत्र अत्र सर्वे जनाः सुखिनो भवन्तु इति ततः शस्त्रं योत्रं योक्तं रात्रि शब्दोपि तत्रैव कुत्र आगच्छति त्रीणि जल्पभिक्षकुट्टवृण्टवृणकान् जल्पाकः भिक्षाकः स्वपाको जल्पाको भवति मधुपाकोपमगिरा यत् जल्पाकः इति सुन्दरशब्दः जल्पाकः इत्युक्ते सुन्दरं यः वदति सः जल्पाकः तथा जल्पाक इत्यस्य महा मधुरं पाकं करोति इति जल्पाक इत्युक्ते
भिक्षाकः भवति पुट्टाकः
पूः इति कौ झलादो किङ्ग् च पूः इति शब्दः पूः इत्युक्ते पत्रम् इत्यर्थः तत्र अष्टपञ्चाशत् शतोत्तर अष्टपञ्चाशत् पृष्ठे राल्लोपः इति भवति तत्र पूः इति पूः इत्युक्ते पट्टनं पत्तनं केवलं पूः इति
पूरः सत्यं
पूः
कथम् आगतं
धूः धुरः धूः धुरः शब्दस्य अर्थः भारं वहति इत्यर्थः योत्रं योक्त्रं योत्रम् इत्यपि तत्र योक्त्रं मनुष्यगले बध्यते टै तदपि भवति योत्रं योक्त्रम् इति
दाति
खण्डयति
दात्रम् इति कर्तनसामग्री
नेत्रम्
इति तत्र रात्रमपि तत्रैव भवेत् खलु तदनन्तरं तत्र आगच्छन्ति सत्यतः तत्रादौ साधारणप्रत्ययः इति शतोत्तरम् एकोननवति दित्यादित्यादित्यप्रत्युत्तरपदान्यः
शतोत्तरम् एकोननवति
वा तद्धिताः तद्धितप्रत्ययान् तत्र स्त्रीप्रत्ययस्यापि उपकृतिर्भवति समर्थानां प्रथमाद्वा अश्वपत्यादिभ्यश्च आश्वपथं गाणपथम् इत्यादि श्यामे दैव्यं दैवं प्राजापत्यः अत्र कित्प्रत्यय उत्साहदिभ्यो न उत्साह तत्र आगतं किल अपत्याधिकार तत्र अपत्याधिकारे गार्ग्यादिभ्यो यन् तत्र गार्गी गार्ग्या गार्गी इति कृतं तत्र अत्र गर्गशब्दस्य उपरि अपत्यार्थे यञ् प्रत्ययः गार्ग्यः इति भवति गर्गस्य अपत्यं गार्ग्यः अत्र गर्गादिभ्यो यन् गर्गादिगणपाठः आयनेय अत्र वर्तते आयनेयीनीयः फड ख च घां प्रत्ययादीनां तत्र गार्ग्यायणी अत्र अस्य गार्ग्यायणः दाक्षायणः अत्र गार्गायणा इत्येव प्रथमं कृत्वा तदनन्तरं सिद्धगौरादिभ्यः सूत्रेण गार्ग्यायणी
दाक्षायणी
तत्रापि गार्गायणी गार्ग्यायणी द्वयमपि भवतु. पौत्रः पौत्राः विश्वामित्रवासिष्ठशब्दाः नकुलः पञ्चालानां राजा पाञ्चाला इति पत्याधिकः अतः रक्ताद्यर्थाः इलि तत्र अत्र सर्वत्र रक्ताद्यर्थः इत्युक्ते प्रथमसूत्रं गृहीत्वा एवम् उच्यते तत्र रक्तस्य किमपि न भवति तेन रक्तं रागा अन् स्यात् रज्यते इति अत्र अत्र तु वर्तते किन्तु अन्यत्र ठगादीनाम् इत्युक्ते प्रथमसु अधिकारसूत्रं गृहीत्वा तथा उच्यते अधिकृत्य इति रज्यते इति रागः रागशब्दस्य शब्दः कथम् उत्पन्नः इत्युक्ते रज्यते इति रागः
तत् रागः इति तत्र कः
रागः इत्युक्ते
द्वयमपि भवति वर्णः इति
भवति
त्रयेपि
सङ्गीतस्य रागः
यत्र रञ्जनं वर्तते भ्राष्ट्राय वा यवाः अत्र पश्यन्तु भ्राष्ट्रेषु संस्कृताः भ्राष्ट्राय वाः भ्राष्ट्राः इत्यादि पाशुपतं वारस्पत्यम् इत्यादिपदस्य सिद्धिः कथं भवति तत्र ग्रामजनबन्धुभ्यस्तल् विशेषः अत्र पश्यन्तु अत्र रक्ताद्यर्थके एव सप्तनवति पृष्ठे तत्र एव एकशतोत्तर नवतिपृष्ठे ग्रामजनबन्धुभ्यस्तल् ग्रामता जनता बन्धुता समूहार्थे अत्र ताप्रत्ययः भवति जनता इत्युक्ते जनानां समूहः जनता जनानां समूहः इति पददीर्घ्यं वाक्यदीर्घ्यं जनता इति केवलं शब्देनैव वक्तुं शक्यते
जनता
पार्टी तदधीते वैयाकरण इति कथं भवति व्याकरणम् अधीते तदधीते तद्वेद तदेव प्रधानं सूत्रं तदधीते तद्वेद इति सूत्रे वैयाकरणः अध्ययनं तत्र तदधीते तद्वेद इत्यधिकृत्य नव्याभ्यां पदान्ताभ्यां पूर्वतु ताभ्यामयिचि इति सूत्रेण तत्र यकारादियागमः वैयाकरणः इत्यादि
शिक्षकः
कस्मिन् देशे यदस्ति इति वक्तव्ये चातुरार्थिकः कौशाम्बी नगरी शिबिरां देशः शैवः कुरङ्गा अङ्गा वङ्गा कलिङ्गाः अतः जनपदार्थे बहुवचने एव प्रयोगः कर्तव्यः पाञ्चालाः कुरवः अङ्गाः वङ्गाः कलिङ्गाः अत्रैव जनपदार्थे पुलिङ्ग बहुवचने एव प्रयोगः कर्तव्यः शिखा तन्ता वलाशब्दः तत्रैव चातुर्थिकस्य अन्तिमं सूत्रं शिखायाः वलच् शिखावलः दन्तावलः इत्यादि वलते शोभते शोभां ददाति इत्यर्थे वलशब्दस्य प्रयोगः नामपदैस्सह
चातुरार्थिकाः इत्युक्ते किं चातुरार्थिकाः
तत्र चतुस्सु अत्र तदस्मिन् अस्ति इति देशे तन्नाम इति उक्तं किल तत्र चतुरादि अर्थे इति अन्यत्र वर्तते सिद्धान्तकौमुद्या नास्ति तत्र प्रथमं सूत्रं तदधिकृत्य प्रारब्धम् एतत् शेषिका शेषे इति प्रारब्ध शेषिका
तस्य विकारा विकार
नादेयम् तत् राष्ट्रीयः इति ईत्वं वर्तते न राष्ट्रीयः इत्येव वक्तव्यं राष्ट्रीयः इति न राष्ट्रीयः तत्र भवः राष्ट्रे भव राष्ट्रीयः शैशिके वर्तते त्रिचुत्तरशतं द्विशतं तत्र राष्ट्रियः इति जिह्वामूलीयम् अङ्गुलीयम् अङ्गुलीयम् अङ्गुलीयकं तं जिह्वामूलाङ्गुलेश्चः तत्र च प्रत्ययः तत्र हैमवती गङ्गा हैमवती दक्षिणे भवः दक्षिणदिशि
विकारार्थे
गव्यं पयस्यं षष्ठे षष्ठपृष्ठे गव्यं गोपयसूर्य विशेषेण क्रियते गोपयसूर्य ठगाधिकारः ठगाधिकारं पश्यति सर्वत्रापि या उपयुक्ता भवति ठगाधिकारः अत्रैव ठक् इति प्रत्ययः भवति ठक् इति अकारः किन्तु अत्र ठञ् इति अग्रे आगच्छति ठक् ठञ् यत्र कुत्रापि ठक् ठञ् आगच्छति तत्र ककारः आगत्येव कस्येकः कस्येकः इति कुत्रापि तत्रैव वर्तते सूत्रं प्राग्वहतेष्ठक् ठकाधिकार इत्युक्ते प्राग्वहतेष्ठक् इति प्रथमं अधिकृतं सूत्रं तदनन्तरं तत्र आक्षिका तत्र आगतं किल आक्षिकी इति अक्षैर्जीविति खनति जयति जितो वा आक्षिकः तत्र स्त्रीप्रत्यये आक्षिकी इति आगता तत्र ठक् प्रत्ययेन आक्षिकी इति रूपं ठक् मारीचिकं मरीचः तत्र पेप्पर् मरीच मरीचेन कृतं मरीचसम्बन्धि इति वा मरीचि संस्कृतं संस्कृतम् इति मारीचिकम् इत्युक्ते मरीचेन कृतम् इति मरीचेन कृतम् इत्यर्थे मारीचिकं हास्तिकः दाधिकः बादरिकः समाजं रक्षति 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 इत्येव सूत्रं समाजं रक्षति सामाजिकः शब्ददुर्दुरं करोति केवलं समाज समाजसम्बन्धि धर्म संस्कृति इत्यादिकमपि
कथं भवति समाजं रक्षति इति सामाजिकः
सामाजिकः
धर्मं रक्षति इति
धार्मिकः अत्रैव वर्तते
धर्मं रक्षति न धार्मिकः
धर्मं चरति चरति तत्र चरणेनैव तस्य रक्षणं
चरणेनैव
अतिथिबोधाचरणप्रचारणैः तत्र आधार्मिकोऽपि वर्तते आधार्मिकशब्दस्य आसमन्तात् सः धार्मिकः इति न अर्थः धर्मः तस्मिन् नास्ति इति आधार्मिकः इत्युक्ते धर्महीनः इत्यर्थः हीनः अधर्मी इत्यर्थः अधर्माच्चेति वक्तव्यं यथा धर्मे इत ठक् प्रत्ययः आगच्छति तथा अधर्मेपि ठक् प्रत्ययः आगच्छति तदा आधार्मिकः इति भवति आधार्मिकः इत्युक्ते धार्मिकः इति अर्थः न धर्महीनः इति आकारत्वात् अस्माभिः आसमन्तात् इत्यादि भावनया आधार्मिकः इत्युक्ते अधार्मिकः इति भावना न भवति अतः वाक्यप्रयोगे अधर्मी इति भवति अधर्मी इति भवति ठक् प्रत्ययः तत्र आगच्छति
अधर्मिकः न
भवति अत्र सर्वत्रापि ठक् इति उच्यते तत्र ठक् इत्यत्र अकारः एव ठकारः ककारः द्वयोपि लुप्यते अकारः अतः सर्वत्र ककारः वर्तते कथम् इत्युक्ते टस्येकः इति सूत्रं वर्तते अत्रैव कुत्रापि वर्तते ठञ् ठञ् इति ठक् इति वर्तते तत्र द्वयोरपि सूत्रयोः ककारस्य आदेशः भवति यत् कुत्रापि ठक् इत्युक्ते तत्र ककारः वर्तते इत्येव अस्माभिः भाव्यते ठञ् इत्यपि उक्ते तथैव दन्त्यं कण्ठ्यं नस्यम् इत्यादिकं कथं भवति इति हेतोरधिकारः इति तत्र खञाधिकारे एवमेव पश्यन्तु इति
पश्यन्तु
केवलं तत्र कोऽपि अस्माभिः न पठितं किमपि